ಗಣಪತಿಗುಂ ಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾ ಬ್ರಹ್ಮಣಸ್ಪತ ಆರಶೃಣ್ವನ್ ನೋತಿಭ್ಯಃ ಸೇದ ಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜಿನೀವತೀ ಧೀನಾಮವಿತ್ರಯವತೋ ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋದ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೇ ಬಾಹುಭ್ಯಾಮುತ ತೇ ನಮಃ ಯಾತ ಇಷ ಶಿವತಮಾ ಶಿವಂ ಬಭೋವ ತೇ ಧನು ಶಿವಾಶರವ್ಯಾಯಾತವತಯಾನೋ ರುದ್ರಮೃಡಯ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೋರಘೋರಾ ಪಾಪಕಾಶಿನಿ ತಯಾನಸ್ತನು ಭಾಷಂತಮಯಾ ಗಿರಿಶಂತಾ ವಿಚಾಕಶೀ ಯಾಮಿಷುಂ ಗಿರಿಶಂತ ಹಸ್ತೇ ಬಿಭರ್ಷ್ಯಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾ ವದಾಮಸಿ ಯದಾ ನಃ ಸರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗು ಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚದದಿ ಭಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ್ ಅಹೀಗಶ್ಚ ಸರ್ವಾಂ ಭಯಂ ಸರ್ವಾಸ್ತಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರಸ್ಸು ಮಂಗಲಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರಾ ಅಭಿತೋ ದಿಕ್ಷುಶ್ರುತಾ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಣ ಈಮಹೇ ಅಸ್ರವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉತೈನಂ ಗೋಪಾ ಅದೃಶನ್ನದೃಶನ್ನುದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಣಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀನುಷೇ ಅಥೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಕರಂ ನಮಃ ಪ್ರಮುಂಶ ಧನ್ವನಸ್ತ್ವಮುಭಯೋರಾರ್ಧಿಯೋರ್ಜಾಂ ಯಾಸ್ಯ ದೇಹಸ್ತ ಇಷವ ಪರಾತಾ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ತ್ವಗಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ದೇ ಋಷಿರ್ಯ ಶಲ್ಯಾಣಾಮುಖ ಶಿವೋ ನ ಸುಮನಾ ಭವ ವಿಜ್ಯಂ ಧನು ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಭುರಸ್ಯ ನಿಷಂಗತಿ ಯಾತೆ ಹೇತಿರ್ಮೀಳುಷ್ಟಮಹಸ್ತೆ ಬಭೂವತೆ ಧನು ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮ ಯಕ್ಷ್ಮಯ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ತ್ವಾಯೋಧಾಯಾನಾದದಾಯ ಕೃಷ್ಣವೇ ಉಭಾಭ್ಯಾಮುತ ತೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೇ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ಋಣಕ್ತು ವಿಶ್ವತಃ ಅಥೋಯ ಇಷುದಸ್ತವಾರಿ ಅಸ್ಮನ್ನಿದೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಗಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯು ಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ ನಮೋ ಹಿರಣ್ಯಭಾವೇ ಸೇನಾನ್ಯೇ ದಿಶಾಂ ಚ ಪದಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯ ಪಶೂನಾಂ ಪದಯೇ ನಮೋ ನಮಃ ಸಸ್ಪಿಂಜರಾಯ ಶ್ರೀಮತೇ ಪಥೀನಾಂ पतये नमो नमो बभ्लुषाय विव्याधिने नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय दताविने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्थीनाम् पतये नमो नम कृष्णवीताय धावते सत्त्वनाम् पतये नमः नमः समानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायोनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः सृकावेभ्यो जिगागुंसद्भ्यो मुष्णताम् पतये नमो नमो सिमद्भ्यो नक्तम् चरद्भ्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषु मद्भ्यो धन्वाविभ्यश्च भो नमो नम आतन्वानेभ्य प्रदिदधानेभ्यश्च भो नमो नम आयच्छद्भ्यो विसृजभ्यश्च भो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च भो नमो नम आसीनेभ्य शयानेभ्यश्च भो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च भो नमो नमस्तिष्ठद्भ्यो दावभ्यश्च भो नमो नमः सभाभ्यस्तभापतेभ्यश्च भो नमो नमो अश्वेभ्योऽश्वपतेभ्यश्च भो नमः नम आव्याधिनीभ्यो विविध्यन्ते भ्यश्च भो नमो नम उगणाभ्यस्त्रिगम् अदेभ्यश्च भो नमो नमो गृत्सेभ्यो गृत्सपदेभ्यश्च भो नमो नमो व्रातेभ्यो व्रातपदेभ्यश्च भो नमो नमो गणेभ्यो गणपदेभ्यश्च भो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च भो नमो नमो महद्भ्यः चुल्लकेभ्यश्च भो नमो नमो रतेभ्यो रतेभ्यश्च भो नमो नमो रतेभ्यो रतपदेभ्यश्च भो नमो नमः सेनाभ्यस्सेनानिभ्यश्च भो नमो नमः क्षत्रभ्यः सङ्ग्रहेतृभ्यश्च भो नमो नमस्त्रक्षद्भ्यो रथकारेभ्यश्च भो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च भो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च भो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च भो नमो नमो मृगयोभ्यश्वनेभ्यश्च भो नमो नमश्वभ्यश्वपदेभ्यश्च भो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च श्रुतिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो मीडुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शेभ्याय च नमः पूर्व्याय च वस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च पगल्भाय च नमो जघन्याय च बुद्धियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः शोक्याय च वसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रदिश्रवाय च नमः आशुषेणाय चाशुलताय च नमः शोराय च वविन्द्रते च नमो वर्मिणे च वरोतिले च नमो बिल्मिने च कवकिले च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हरण्याय च नमो विष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषु धिमते च नमस्तीक्ष्णे शवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः शोद्याय च सरस्याय च नमो नाध्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युद्याय च नमः इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वदाय च दूरे वदाय च नमो हन्त्रे जहनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवधराय च नमस्तेर्द्याय च कोल्याय च नमः पार्याय च भार्याय च नमः प्रकरणाय चोत्तरणाय च नमः आधार्याय च लाद्याय च नमः शष्प्याय च भेल्याय च नमः शिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयणाय च नमः कपर्दिने च बुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पांसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्ण्याय च सूर्ण्याय च नमः पर्ण्याय च पर्णशज्ञाय च नमो फगुरमाणाय च भिद्धते च नमः आक्षिरते च प्रक्षिदते च नमो वक्रिकेभ्यो देवानागुंहृदयेभ्यो नमो विक्षीरकेभ्यो नमो विचिन्वत्केभ्यो नमः आनिर्हते नमामि वक्येभ्यः द्रापे अन्धलस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा वेर्मा रोमो येषाम् किञ्चन ममत् या ते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो वृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वेराय प्रवरामहे मतिम् यथा रश्रमतद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननादुरम् मृडानो रुद्रोदनो वयस्कृति क्षयद्वेराय नमसा विधेमते यच्छम् चयोश्च मनुरायजे पिता तदश्याम तव रुद्रप्रणीतौ मानो महान्तमुदमानो अर्भकम् मान उक्षन्तमुदमान उक्षितम् मानो वदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्रवीरिषः मानस्तोके तन एवान आयुषिमानो गोषुमानो अश्वेषु रीरिषः वीरान्मानो रुद्रभाभितो वदेह विष्मन्तो नमसा विदेवते आराते गोग्न उदपोरुषग्ने क्षयद्वीराय सुम्नमस्मेते अस्तु रक्षा च नो अदि च देव रोह्यदा च न शर्म यच्च विवरा सुविश्रुतम् गर्तदम् युवानम् मृगन्न भीममुपहत्मुग्रम् मृडाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेना परिणो रुद्रस्य हेतिर्णक्तुपरि त्वेषस्य दुर्मतिरघायोः अवस्थिरामगवद्भ्यस्तनुष्वमीव स्तोकाय तनयाय मृडया मीणुष्टमशिवतमशो नः सुमना भव परमे वृक्ष आयुधम् निदाय कृत्रिम् वसा न आचर पिनाकम् बिभ्रदागहे विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् एतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या एषागुम् सहस्रयोधने वदन्वानि तन्मसे अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि नीलग्रीवा श्रीकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवा श्रीकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासक्कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पदाम् पदिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचलन्ति सृगावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रामिदस्थिरे तेषागुम् सहस्रयोजने वदन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषभस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेशेर्दशोदेशेर्दशोद्वासेभ्यो नमस्ते नो मृणयन्तु तेयम् विश्वो यश्च नो द्वेष्टितम् भोजम् मे ददामि त्र्यम्बकय्यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सुय ओषधीषु यो रुद्रो विश्व भुवनादिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पार्षा मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु यश्विजुस्तु धन्वायो विश्वस्य क्षयति मे जजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमोभिर्देवमधुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमर्षणः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसेमा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे जुश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जैष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भावश्च मेवश्च मेऽम्बश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे भस्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धरम् च मे वशश्च मे द्विषश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुखम् च मे सुपतम् च मरुद्धम् च मरुद्धिश्च मे कृप्तम् च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे शम् च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोऽश्च मे प्रसोऽश्च मे शीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नाम यच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ऊर्च मे सुनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सद्भिश्च मे सपेदिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रम् च मौद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कूयवाश्च मेनम् च मे क्षुच्च मे ब्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मेणवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च मापश्च मे विरुधश्च मौषधयश्च मे कृष्टपच्यम् च मे कृष्टपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशश्च मे रश्मिश्च मे दाभ्यश्च मे धिपतिश्च म उपागुंशश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतु ग्रहाश्च मेति ग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदेयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धृष्णीयाश्च मे श्रुतश्च मे तमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पोतवृक्ष म आधवनीयश्च म आग्नेद्रम् च मे हविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे वभृदश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दिदिश्च मे दिदिश्च मे द्यौश्च मे शक्वरेरङ्गुलयो दिशश्च मे यज्ञेन कल्पं तामृक्ष मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे द्वित्यवाच्च मे द्वित्यौहि च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहि च मे पष्ठवाच्च मे पष्ठौहि च महुक्षा च मे वशा च मरुषभश्च मे वेहं च मे नड्वां च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता विश्रोत्रं यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मे अष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे अष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे अष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्च बिजश्च क्रतुश्च सुवश्च मूर्धा च व्यस्मियश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्तामदानि सगुं सिषद्विश्वे देवासो उक्तवाच पृथिविमातर्मा माहिगुंसे मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तम् मा देव अवन्तु शोभाय पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छय्योरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद् स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतं यच्च भव्यम् उतामृतत्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा अतोज्यायानुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्वदैत्पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्माद् विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्म शरद्धविः सप्तास्यासन् परिदयः त्रिसप्त समिदः कृताः देवा यज्ञज्ञम् तन्वानाः अबध्रन् पुरुषम् पशुम् तै यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः
ऋतमृतम्
वृषदाज्यम् पशोभुस्ताभिश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एकेशो भयादतः गावो हजज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यददुः कदिदाव्यकल्पयन् मुखम् किमस्य कौ बाहो कावोरुपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यः कृतः ऊरु तदस्य यद्वैश्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम्बकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशस्य दस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्या सन्ति देवाः अर्भ्यः सम्भूत पृथिव्यैरसा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विददद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवं विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीणाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो ऋचाय ब्राह्मये ऋचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रेष्यते लक्ष्मीस्य पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विहव्यात्तम् इष्टम् मणिषाणा अमुम् मणिषाणा सर्वम् मणिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीणागम् राजा अप्येषागस्तवतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्रा अथो कृष्णा अथो श्वेता अथो आशाचिका हता श्वेताभिः सह सर्वे हता आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयो आददामि तथा हि तत् खण्फण्मृषे ॐ शान्ति शान्ति शान्तिः ॐ अग्निमीरे पुरोहितम् यज्ञस्य देवमृत्विजम् होतारम् रत्नधातमम् ऋग्वेदात्मने सूर्यनारायण स्वामिने नमः इषे त्वोर्जेत्वा वायवस्थोपायवस्तदेवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे यजुर्वेदात्मने सूर्यनारायण स्वामिने नमः अग्न आयाहि वेतये घृणानो हव्यदातये निहोता चक्षि बर्हिषे सामवेदात्मने सूर्यनारायण स्वामिने नमः शन्नो देवेदभिष्टय आपो भवन्तु पीतये शय्योरभिश्रवन्तु नः अथर्ववेदात्मने सूर्यनारायण स्वामिने नमः गृणि सूर्य आदित्यो न प्रभावात्यक्षरम् मधुक्षरन्ति तद्रसम् सत्यम् वै तद्रसमापो ज्योतिरसोऽमृतम् ब्रह्म भूर्भुवः सुवरो छायासुवत्सलाम्बासमेत श्रीसूर्यनारायणस्वामिने नमः तरणिर्विश्वदर्शतो ज्योतिष्कृतसि सूर्या विश्वमाभासि लोचनम् उपयाम गृहीतोऽसि सूर्याय त्वा ब्राजस्वत एष ते योनि सूर्याय त्वा ब्राजस्वते छायासु वत्सलाम्बसमेतस्वी सूर्यनारायण स्वामिने नमः ॐ ह्राम् उद्यन्नद्यमित्रमहः मित्राय नमः ॐ ह्रीम् आरोहन्नुत्तराङ्गिवम् रवये नमः ॐ ह्रूम् रुद्रोगम् मम सूर्याय नमः ॐ ह्रैम् हरिमाणम् च नाशय भानवे नमः ॐ ह्रौम् शुकेषु मे हरिमाणम् खगाय नमः ॐ ह्रः रोपणाकासु दद्मसे पोष्णे नमः ॐ ह्राम् अथो हारिद्रवेषु मे हिरण्यगर्भाय नमः ॐ ह्रीम् हरिमाणन्नि दद्मसे मरीचये नमः ॐ ह्रूम् उदगादयमादित्यः आदित्याय नमः ॐ ह्रैम् विश्वेन सहसा सह सवित्रे नमः ॐ ह्रौम् विशन्तम् मम रन्धयन् अर्काय नमः ॐ ह्रः मो अहम् द्विषतो रथम् भास्कराय नमः ॐ ह्राम् ह्रीम् उद्यन्नद्यमित्रमहः आरोहन्नुत्तराम् दिवम् मित्ररविभ्याम् नमः ॐ ह्रूम् ह्रैम् रुद्रोगम् मम सूर्या हरिमाणम् च नाशय सूर्यभानुभ्याम् नमः ॐ ह्रौम् ह्रः शुकेषु मे हरिमाणम् रोपणाकासु दद्मसे खगपोषभ्याम् नमः ॐ ह्राम् ह्रीम् अथो हारिद्रवेषु मे हरिमाणन्नि दद्मसे हिरण्यगर्भमरीचिभ्याम् नमः ॐ ह्रूम् ह्रैम् उदगादयमादित्यः विश्वेन सहसा सह आदित्यसवित्रभ्याम् नमः ॐ ह्रौम् ह्रः द्विषन्तम् मम रन्धयन् मो अहम् द्विषतो रथम् अर्कभास्कराभ्याम् नमः ॐ ह्राम् ह्रीम् ह्रूम् ह्रैम् उद्यन्नद्यमित्रमहः आरोहन्नुत्तराम् दिवम् रुद्रोगम् मम सूर्या हरिमाणम् च नाशय मित्ररविसूर्यभानुभ्यो नमः ॐ ह्रौम् ह्रः ह्राम् ह्रीम् शुकेषु मे हरिमाणम् रोपणाकासु दद्मसे अथो हारिद्रवेषु मे हरिमाणन्नि दद्मसे खगपूषहिरण्यगर्भमरीचिभ्यो नमः ॐ ह्रूम् ह्रैम् ह्रौम् ह्रः उदगादयमादित्यः विश्वेन सहसा सह विशन्तम् मम रन्धयन् मो अहम् द्विषतो रथम् आदित्यसवित्रर्कभास्करेभ्यो नमः ॐ ह्राम् ह्रीम् ह्रूम् ह्रैम् ह्रौम् ह्रः उद्यन्नद्यमित्रमहः आरोहन्नुत्तराम् दिवम् रुद्रोगम् मम सूर्या हरिमाणम् च नाशय शुकेषु मे हरिमाणम् रोपणाकाशुदद्मसे मित्ररविसूर्यभानुखगपूषभ्यो नमः ॐ राम ह्रीं ह्रूं ह्रैं ह्रौं ह्रः अथो हारिद्रवेषु मे हरिमानन्निदद्मसे उदगादयमादित्यः विश्वेन सहसा सह विशन्तम् मम रन्धयन् मो अहम् द्विषतो रथम् हिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करे भ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः उद्यन्नद्य मित्रमहः आरोहन्नुत्तरान् दिवम् हृद्रोगम् मम सूर्या हरिमाणम् च नाशया शुकेषु मे हरिमाणम् रोपणाकाशु दद्मसे अथो हारिद्रवेषु मे हरिमाणम् निदद्मसे उदगादयमादित्यः विश्वेन सहसा सह विशन्तम् मम रन्धयन् मो अहम् द्विषतो रथम् मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमहेच्यादित्यसवित्रर्कभास्करेभ्यो नमः आदित्यो वा एष एतन्मण्डलम् तपदि तत्र चार्चस्तदृचामण्डलगु सरुचाम् लोकोतय एष एतस्मिन्मण्डलेर्चिर्दीप्यते तानि सामानि ससाम्नाम् लोकोतय एष एतस्मिन्मण्डले चिषि पुरुषस्तानि यजोगुंसि स यजुषा मण्डलगुंस यजुषाम् लोकस्यैषात्रय्येव विद्यातपति य एषोऽन्तरारित्ये हिरण्मयः पुरुषः छायासुवत्सराम् वासमेत श्रीसूर्यनारायणस्वामिने नमः आदित्यो वै तेज ओजो बलम् यशश्चक्षुश्रोत्रमात्मा मनो मन्युर्मनुर्मृत्युः सत्यो मित्रो वायुराकाश प्राणो लोकपालः कः किम् कम् तत् सत्यमन्नममृतो जीवो विश्वः कतमः स्वयम्भुब्रह्मैतदमृत एष पुरुष एष भूतानामधिपतिः ब्रह्मणः सायुज्यगुम् स लोकतामाप्नोत्येतासामेव देवतानागुम् सायुज्यगुम् शास्त्रितागुम् समानलोकतामाप्नोति य एवम् वेदेत्युपनिषत् छायासुवत्सराम् वासमेत श्रीसूर्यनारायणस्वामिने नमः ॐ शान्ति शान्ति शान्तिः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः अथ पुरुषो ह वै नारायणो कामयतः प्रजा सृजेयेति नारायणात् प्राणो जायते मनः सर्वेन्द्रियाणि च खम् वायुर्ज्योतिराप पृथिवी विश्वस्य धारिणी नारायणात् ब्रह्मा जायते नारायणात् रुद्रो जायते नारायणादिन्द्रो जायते नारायणा प्रजापतय प्रजायन्ते नारायणाद्वादशादित्या रुद्रावसवः सर्वाणि च छन्दागुंसे नारायणादेव समुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते ॐ अथ नित्यो नारायणः ब्रह्मा नारायणः शिवस्य नारायणः शक्रस्य नारायणः द्यावा पृथिव्यौ च नारायणः कालस्य नारायणः दिशस्य नारायणः ऊर्ध्वस्य नारायणः अधस्य नारायणः अन्तर्बहिश्च नारायणः नारायण एवेदगुं सर्वम् यद्भूतं यच्च भव्यम् निष्कलो निरञ्जनो निर्विकल्पो निराख्या च शुद्धो देव एको नारायणः न द्वितीयो कश्चित् य एवं वेदा स विष्णुरेव भवति स विष्णुरेव भवति ओमित्यग्रे व्याहरेत् नम इति पश्चात् नारायणायेत्युपरिष्टात् ओमित्येकाक्षरम् नम इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि एतद्वै नारायणस्याष्टाक्षरम् पदम् यो ह वै नारायणस्याष्टाक्षरम् पदमध्येति अनपब्रुवः सर्वमायुरेति विन्दते प्राजापत्यगुम् रायस्पोषम् गौपत्यम् ततो मृतत्वमश्नुते ततो मृतत्वमश्नुत इति त एवम् वेदा प्रत्यगानन्दम् ब्रह्मपुरुषम् प्रणवस्वरूपम् अकार उकारमकार इति तानेकधा समभरत्तरेतदोमिति यमुक्त्वा मुच्यते योगि जन्म संसारबन्धनात् ॐ नमो नारायणायेति मन्त्रोपासकः वैकुण्ठभुवनलोकम् गमिष्यति तरिदम् परम् पुण्डरीकम् विज्ञानगणम् तस्मात् तदिदावन्मात्रम् ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतस्तमेकम् नारायणम् कारणरूपमकारपरब्रह्मो एतदधर्वशिरो यो धीते प्रातरधेयानो धातृकृतम् पापम् नाशयति सायमधेयानो दिवसकृतम् पापम् नाशयति माध्यन्दिनमादित्याभिमुखो धेयान पञ्चपातकोपपातकात् प्रमुच्यते सर्ववेदपारायण पुण्यम् लभते नारायण सायुज्यमवाप्नोति नारायण सायुज्यमवाप्नोति य एवम् वेदा इत्युपनिषत् सहनावतो सहनौ भुनक्तो सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः स्वस्य प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहीषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्तिः शाम।